षष्ठोऽध्यायः नारी आहारं निर्पाय अपचत्। नराः अल्पात्वनात् नदीम् अगच्छन्। अश्वौ ग्रामस्य समीपे वने अवसताम्। अल्पायां नद्यां सुन्दरः वृक्षः तिष्ठति। नरौ अल्पानि फलानि लिप्सेते पिपक्षतः च। वृक्षयोः फलानि अपचाम आहारञ्च अखादाम। नद्योः समीपे अल्पौ ग्रामौ अतिष्ठताम्। नृपः नरान् सुन्दरे ग्रामे अवासयत्। वृक्षाणां सुन्दराणि फलानि अचोरयः अखादः च।